एवं नमस्कारः सर्वेभ्यः। अद्यतनविषयः अस्ति समवायिकारणम् असमवायिकारणं तयोः लक्षणवाक्यम् अपि च तस्मिन् लक्षणवाक्ये दलसार्थक्यं तस्मिन् विषये चिन्तनम् अस्तु। गते सप्ताहे अस्माभिः कार्यं किं कारणं किम् इति लक्षणवाक्यं पठितं, ततः अग्रे सरेम तर्हि। 144 इति तमे पुटे कारणं त्रिविधम् इति, तस्मात् पठामः। सुगनमध्ये पठति वा कारणं त्रिविधं?
पठामः महोदय। पुटसङ्ख्या 144 इति, कारणं त्रिविधं समवायि असमवायि निमित्तभेदात्। यत् समवेतं कार्यम् उत्पद्यते तत् समवायि कारणं, यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः। कार्येन कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणम् असमवायि कारणं, यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य। तदुभयभिन्नं कारणनिमित्तकारणं, यथा तुरीयं तुरीवेमादिकं पटस्य इति। अत्र कारणं त्रिविधम् इति दत्तमस्ति। तत्र त्रयाणां नाम किम् इति चेत् समवायी कारणम् इति एकम्, असमवायी कारणम् इति द्वितीयं, निमित्तकारणम् इति तृतीयम् इति अस्ति। इदानीं प्रथमं समवायीकारणस्य लक्षणं वदति। यत् समवेतं कार्यं, यत् समवेतं कार्यम् उत्पद्यते तत् समवायी कारणम् इति। यथा तन्तवः पटस्य इति उदाहरणम् अस्ति। तत्र तन्तुसंयोगेन पटः जायते इति वयं जानीमः। तत्र तन्तवः किं वदामः, अत्र तन्तुभ्यः एव पटः जायते, अतः तन्तवः पटस्य समवायीकारणं भवति। कथम् इति चेत्, यत् समवेतं कार्यम् उत्पद्यते इति। इदानीं पटः कुत्र अस्ति इति पृष्टे सति तन्तुषु एव पटम् अस्ति, तन्तवः एव आधारः, पटः तु आदेयः इति कृत्वा तन्तौ समवेतम् अस्ति पटम् इति कृत्वा, तत्र यत् समवेतम् इत्युक्ते कारणेन समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् इत्येव अस्ति किल महोदय?
एकमस्ति, अत्र तन्तवः पटस्य अवयवाः अवयवीनमपि सम्बन्धः अपि अस्ति। पटस्य अधिकरणं तन्तवः, अपि च यत् समवेतं, तत्र यत् इति पदं सप्तमी, यस्मिन् समवेतम् इति स्वीकरणीयम् वर्गे उक्तं, यत् कारणम् इति न, यस्मिन् समवेतं,
यस्मिन् समवेतं कार्यं, तत्र किञ्चित् वदतु महोदय इतोपि, यस्मिन् समवेतं कार्यम् उत्पद्यते इत्युक्ते
यस्मिन् कार्ये, यस्मिन् कारणे समवेतं कार्यम् उत्पद्यते तत् समवायिकारणं, यस्मिन् कारणे
इत्युक्ते
समवेतं
इत्युक्ते कार्यं कारणेन कारणे समवेतमस्ति इति। अस्तु,
तन्तवः पटस्य अग्रे पटश्च,
पटस्य स्वगतरूपभेदः रूपादेः। इदानीं तत्र पटः अस्ति, तस्मिन् रूपम् अस्ति। रूपं कुत्र वर्तते इत्युक्ते तत्र पटे एव वर्तते, समवायसम्बन्धेन पटे एव वर्तते इति कृत्वा, तत्र पटः स्वगतरूपं प्रति कारणं भवति, समवायी कारणं भवति इति आगच्छति।
अत्र अत्र गुणगुणिनोः सम्बन्धः, तन्तुपटस्य तत्र अवयव अवयवीनसम्बन्धः, अत्र गुणगुणिनोः रूपः रूपमिति गुणं रूपः इति गुणं रूपमिति
गुणम् इति आम् तत्र सत्यमेव. तत्र पटः तु समवायेन तन्तुषु वर्तते, गुणः रूपादिगुणः तु पठे समवायिकारणे समवायेन वर्तते इति कृत्वा तत्र समवायिकारणं भवति. पटः स्वगतरूपस्य समवायिकारणं भवति, तन्तवः पटस्य समवायिकारणं भवति इति. एवमेव
मध्ये केन आगतं? क्षम्यतां, मध्ये केन आगतं? पुष्पभगिनी अस्ति वा?
आम् आं महोदय.
अन्य का सरला भगिनी अस्ति वा? ध्वनिद्वयं मया श्रुतम्. अस्तु, वयं 144 अस्ति वा?
सरला भगिन्याः संख्या एव.
अस्तु, पुष्पभगिनी, वयं 144 इति तमे पुटे स्मः. तत्र शुकवनं महोदय अग्रे
अवगतम्.
अस्तु
अस्तु अस्मि, अत्र अस्मि.
अस्तु महोदय, कृपया क्षम्यता.
अस्तु, कार्येण कारणेन वा सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. इदानीम् असमवायिकारणस्य लक्षणम् उक्तमस्ति अत्र. इदानीम् असमवायिकारणस्य द्वैविध्यं भवति, कार्येण सह समवेतं भवति, कारणेन सह अपि समवेतं भवति. तादृशकारणम् असमवायिकारणं भवति इति. यथा उदाहरणमर्थ अत्र अस्ति, तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य इति अत्र अत्र उदाहरणद्वयं दत्तमस्ति. प्रथमं तु वयं तन्तुसंयोगः पटस्य इति स्वीकुर्मः. वयं जानीमः यदा संयोगः उत्पद्यते तन्तुषु तदा एव पटनिर्माणं भवति इति. संयोगः तु गुणः अस्ति इति अपि वयं जानीमः. तत्र संयोगः इति गुणः तन्तौ समवायेन वर्तते, अपि च समवायेन कार्यं जनयति. पटः इति कार्यं जनयति. किमर्थं समवायेन कार्यं जनयति इति मया उक्तम् इत्युक्ते, तत्र पटः तु तन्तौ समवायसम्बन्धेन एव वर्तते इति कृत्वा. अतः तत्र तन्तौ संयोगः अपि वर्तते, कार्यम् अपि वर्तते इति कृत्वा तन्तु समानादि समान अधिकरणं भवति संयोगस्य अपि च पटस्य इति कृत्वा. तत्र पटः अपि च संयोगस्य समानाधिकरण्यं भवति इति कृत्वा तत्र कार्येण सह समवेतं सत् कारणम् इति भवति संयोगः इति कृत्वा. तत्र प्रथमविध असमवायिकारणं भवति तन्तुसंयोगः पटस्य इति एकम्. इदानीं द्वितीयं, तन्तुरूपं पटरूपस्य कारणं भवति इति वयं जानीमः. तत्र यदा पटः जायते तस्मात् अग्रिमक्षणे पटरूपमपि जायते. इदानीं कीदृशरूपं जायते इत्युक्ते, तन्तवः नीलरूपः अस्ति चेत् तत्र पटमपि नीलरूपमेव भवति इति अपि वयं जानीमः. अतः तन्तुरूपं पटरूपस्य कारणं भवति. इदानीं केन सम्बन्धेन भवति इति पश्यामश्चेत्, तत्र रूपमिति गुणः तन्तौ समवायेन वर्तते. पटस्य रूपमपि गुणः, किन्तु कुत्र वर्तते इत्युक्ते पटे एव वर्तते. इदानीं पटः कुत्र वर्तते इत्युक्ते तन्तौ तन्तुषु वर्तते इति परम्परासम्बन्धेन तत्र भवति कारणत्वं साधयितुं शक्यते इति कृत्वा तत्र कारणेन सह समवेतं सत् इति इति लक्षितम् अस्ति. कारणेन सह एकस्मिन् अर्थे समवेतं इत्युक्ते इदानीं कार्यं किं पटरूपः पटरूपस्य कारणं किं पटः समवायिकारणं पटः एव तत् कुत्र वर्तते तन्तौ वर्तते तत्र यद् तन्तौ पटः अस्ति तत् तन्तौ एव समवेतम् अस्ति तन्तुरूपम् इति कृत्वा तत्र कारणेन सह एकस्मिन् अर्थे समवेतं यत् कारणं भवति तत् द्वितीयविध असमवायिकारणं भवति इति अस्ति अत्र तन्तुसंयोगः पटस्य इति प्रथमविध असमवायिकारणस्य उदाहरणं प्रथमविध असमवायिकारणमस्ति कार्येण सह समवेतं सत् कारणम् असमवायिकारणम् इति तन्तुरूपं पटरूपस्य पटरूपं प्रति द्वितीयविध असमवायिकारणं प्रति द्वितीयविध असमवायिकारणं तु कारणेन सह समवेतं सत् कारणम् इति अस्ति इदानीं तद् उभयभिन्नम् इत्युक्ते यद् कारणं समवायिकारणं वा असमवायिकारणं न भवति समवायिकारणभिन्नं भवति असमवायिकारणस्यापि भिन्नं भवति तादृश सर्वाणि कारणानि निमित्तकारणानि इत्यनेन ज्ञायते क्षम्यता महोदय तत्र उदाहरणमस्ति तुरीवेमादिकं पटस्य तत्र तुरीवेम इत्युक्ते किं महोदय
तुरीवेम वीविङ्ग् वीविङ्ग् मिल् किमपि येन वयनं भवति
यन्त्रम् अस्ति अनेन तन्तुसंयोगः क्रियते तद् यन्त्रं तत्र पटस्य निमित्तकारणं भवति यन्त्रं विना संयोगः न भवति संयोगं विना पटं न जायते इति कृत्वा अनेन परम्परारीत्या तत्र यन्त्रे अपि कारणत्वम् आपतति किन्तु कीदृशकारणम् इत्युक्ते तत्र समवायिकारणमपि नास्ति असमवायिकारणं अपि नास्ति इति कृत्वा तद् निमित्तकारणम् इति नैयायिकाः स्वीकुर्वन्ति
सम्यक् महोदय सर्वे अवगतम् एतावता अस्तु अग्रे महोदय विभागोऽयं शुकनं महोदय अग्रे पठति वा
हा अहमेव अस्तु पठामि विभागोऽयं सुष्ठुः निरूपितः तत्राद्ये समवायिकारणे तादात्म्यं घटकमिति तदपि साधितम् आं तत्र यदा समवायिकारणस्य विषये वयं पूर्वं पठितवन्तः तत्र समवायिकारणस्य लक्षणम् एतादृशम् उक्तमस्ति यत् स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् इति तदेव अत्र स्मारितम् अत्र अग्रे पठामि वा महोदय
तत्र तादात्म्यसम्बन्धमपि आसीत् इति स्मारयन्ति
तादात्म्येन स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत्र उदाहरणमस्ति तन्तुः पटस्य कारणम् इति तन्तुः स्वस्मिन् तादात्म्येन स्थित्वा तन्तोः मध्ये किं सम्बन्धः इति तादात्म्यसम्बन्धः एव वर्तते इति तेषां सिद्धान्तः तत्र तन्तवः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति किमर्थं समवायेन इत्युक्ते तन्तवः एव अवयवाः भवन्ति इदानीं पटः अवयवी भवति इति कृत्वा अनयोः मध्ये समवायसम्बन्धः अस्ति इति कृत्वा यत् कारणं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवायी कारणं भवति इति लक्षितम्
अग्रे महोदय विषयः समापयतु कृपया
अस्तु
कारणं
यदि कारणं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् इति मया एव इदानीमेव उक्तम् इह कार्यतावच्छेदकसम्बन्धः समवायः कार्यतावच्छेदकसम्बन्धः समवायः कः इत्युक्ते तत् पटतन्तुषु मध्ये यत् सम्बन्धः अस्ति तत् समवायसम्बन्धः कथं समवायसम्बन्धः इत्युक्ते तन्तवः अवयवाः पटः अवयवी इति कृत्वा अवयव अवयविनोः सम्बन्धः समवायसम्बन्धः एव भवति इति वयं जानीमः. अतः तत्र कार्यतावच्छेदकसम्बन्धः समवायः, कारणतावच्छेदकसम्बन्धः तादात्म्यम् इति तन्तवः स्वस्मिन् तादात्म्येनैव तादात्म्यसम्बन्धेनैव वर्तते इत्यपि वयं जानीमः. तथा च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं समवायीकारणत्वं पूर्वोक्तमेव सम्बन्धनिवेशसार्थक्यचिन्तनाय पुनः स्मारितम् इति. तत्र समवायसम्बन्ध अवच्छिन्नकार्यतासम्बन्धः किम् इत्युक्ते समवायसम्बन्ध अवच्छिन्नकार्यता इदानीम् कारणता केन सम्बन्धेन अवच्छिन्ना इत्युक्ते तादात्म्यसम्बन्धेन अवच्छिन्नकारणता. तादृशकारणतायाः आश्रयं तन्तवः, तादृश कारणता आश्रयत्वं कुत्र वर्तते इत्युक्ते समवायीकारणत्वे वर्तते इति सम्बन्धनिवेशसार्थक्यचिन्तनाय पुनः स्मारितं. तत्र सम्बन्धः कः इति स्मारणार्थम् अत्र पुनश्चिन्तनं कृतम् इति दत्तमस्ति. इह कार्यतायां समवायसम्बन्ध अवच्छिन्न अनुपादानेन किञ्चित् समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता इति लक्षणं स्यात् इत्युक्ते कार्यतायाम् इत्युक्ते कार्यतायां कार्यता इति धर्मः तस्मिन् तासां समवायसम्बन्ध अवच्छिन्न अनुपादानेन यदि तद् त्यजामः चेत् समवायसम्बन्ध अवच्छिन्नकार्यता इति दलं त्यजामश्चेत् किं भवति? किञ्चित् सम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति लक्षणं भवति. अनेन किमपि दोषः भवति वा इति पृष्टे सति, तथा सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः भवति इति. इदानीं घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः भवति इति. इदानीं तत्र घटप्रत्यक्षम् इति कार्यम् अस्ति, तस्य कारणं घटः. यदि घटः तत्र नास्ति चेत् घटप्रत्यक्षं न भवति इति कृत्वा घटप्रत्यक्षं प्रति घटं कारणं भवति. किन्तु घटस्य तत्र घटप्रत्यक्षसन्दर्भे घटस्य समवायीकारणं वा असमवायीकारणं वा न स्वीकृतम् इति कृत्वा तत्र निमित्तकारणमेव स्वीकृतम् इति कृत्वा यदि समवायसम्बन्ध अवच्छिन्नकार्यता इति दलं त्यजामश्चेत् तत्र घटप्रत्यक्षसन्दर्भे घटे अतिव्याप्तिः भवति समवायीकारणस्य इति कृत्वा तत्र तस्य दलस्य आवश्यकता अस्ति इति दत्तमस्ति. तत्र प्रायः अग्रे गत्वा निरूपयति अपि.
सत्यं तदेव अस्ति. अस्तु, एतावत् प्रश्नः अस्ति वा? अस्तु, नो चेत् पुष्पभगिनी अग्रे पठति वा प्रत्यक्षं प्रति विषयस्य कारणत्वम्?
आं महोदय, शब्दम् अस्ति वा? नास्ति
न? सम्यक् अस्ति, साधु अस्ति.
सम्यक् अस्ति. प्रत्यक्षं प्रति विषयस्य कारणत्वं तत्तु विवरणं कुर्मः. अनुमित्यादि स्थले वह्नेः अवर्तमानता दशायाम् अपि न अवर्तमानता दशायाम् अपि अत्र धूमः आसीत् इति ज्ञाने सति वह्निधूमयोः वक्ष्यमाणसम्बन्धस्य ज्ञानेन अविद्यमानस्य अपि वह्नेः अनुमितिः भवति. एवं शाब्दबोधस्थले अपि तेन इदम् अवगच्छामः यत् प्रत्यक्ष अतिरेके अतिरिक्ते स्थले प्रमायां जननीयायां जननीयां यायां विषयः तत्र भवेत् एव आवश्यक एव इति न नियमः. तत्र भेदः भवेत् एव आवश्यक एव इति न नियमः. तथा सति अनियमितस्य तस्य प्रत्यक्ष अतिरिक्ते कारणत्वं न अस्ति इति निश्चिनुमः. अस्तु. अत्र वह्नि धूम विषयस्थले अनुमित्यादिस्थले तत्तु धूमः अस्ति चेत् वह्निः अस्ति इति दशयाम् अपि इत्र वदनेन किं दृष्टायां न तत्तु
अत्र अवर्तमानता अवर्तमानः इत्युक्ते वर्तमानः इत्युक्ते इदानीम् अस्ति अवर्तमानः इत्युक्ते इदानीं नास्ति अस्मिन् समये नास्ति
पूर्वे अस्ति पूर्वे अस्ति
पूर्वे पूर्वम् आसीत्
पूर्वे आसीत् आसीत् दशयाम् अपि इत्युक्ते
दशायां स्थित्यां
स्थित्यां दशायां
तादृशस्थित्याम् अपि
स्थित्याम् अत्र अपि अत्र धूमः आसीत् इति ज्ञाने सति वह्निधूमयोः वक्ष्यमाणसम्बन्धस्य ज्ञानेन अविद्यमानमानस्य अपि वह्नेः अनुमितिः भवति. तत्र वक्ष्यमाण तत्तु न दृष्टं सति वह्नेः अवर्तमाने आसीत् इति ज्ञानम् अनुमतिः भवति न
इत्युक्ते अवर्तमानता इत्युक्ते इदानीं धूमः नास्ति किन्तु पूर्वं धूमः आसीत् इति ज्ञाने सति ओ पूर्वं धूमः आसीत् चेत् धूमः आसीत् चेत् अपि आसीत् इति ज्ञानं भवति किल तादृश अनुमतिः भवति.
वक्ष्यमाणसम्बन्धस्य तत्तु
कः सम्बन्धः व्याप्तिसम्बन्धः यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञानम् इति सम्बन्धस्य ज्ञानेन अविद्यमानस्य वह्निः नास्ति अपि वह्निः अत्र आसीत् इति ज्ञानं भवति
इदमिति भवति. एवं शब्दबोधस्थले अपि तत्तु बोधनस्य समये एव तेन इव इदम् अवगच्छामः यत् प्रत्यक्ष अतिरिक्ते स्थले प्रमायां जननीयायां विषयः तत्र भवेत् एव आवश्यक एव इति न नियमः. इदानीं तत् तत्तु ये सर्वे वह्निभूमयोः ज्ञानं न इदम् अवगच्छामः यत् प्रत्यक्ष अतिरिक्ते स्थले तत्तु आवां प्रमायां तु अवगच्छं प्रमाया न प्रमाया तु तत् अत्र अस्ति न अर्थं प्रमा तु द्वे अर्थमस्ति न
अत्र प्रमाद ज्ञानं ज्ञानं जननीयाया विषयः पुरतः भवेत् एव इति न आवश्यकः
ज्ञानं जनयति इति विषयः विषयः ज्ञानं जनयति इति जननीयायां विषयः तत्र भवेत् एव आवश्यक एव इति न नियमः तत्तु आवरण आवश्यकं तु कोऽपि आवश्यक तत् विषयः आवश्यक एव नास्ति इति न
इत्युक्ते भगिनि अत्र
इति नियमः नास्ति इति
नियमः नास्ति प्रत्यक्षविषये घटप्रत्यक्षं वा पटप्रत्यक्षं वा तत्र घटं घटः वा पटवः पुरतः स्यात् तथा एव ज्ञानं भवति प्रत्यक्षज्ञानं किन्तु अनुमानज्ञानं शाब्दबोधज्ञानं स्मृतिज्ञानं तत्र विषयः अस्मिन् समये भवेत् इति न नियमः
अस्मिन् समये
अत्र भवेत् इति न नियमः प्रत्यक्षं विहाय प्रत्यक्षं भिन्नम् अन्य ज्ञानप्रमाणे विषयः न भवेत् विषय भवेत् एव इति न नियमः अग्रे तथा सति एवं सति
अन्यतस्य तस्य प्रत्यक्ष अतिरिक्ते कारणत्वं न अस्ति इति निश्चिनुमः तथैव प्रत्यक्ष अतिरिक्ते सति कारणत्वं नास्ति इति निश्चयेन वक्तुं शक्नुमः
किं कारणं नास्ति कस्मिन् कारणत्वं नास्ति कस्य कारणत्वं नास्ति
शब्दबोधः न ज्ञानं
अत्र विषयस्य विषयः विषये कारणत्वं नास्ति प्रत्यक्षं विहाय
प्रत्यक्षं विहाय कारणं नास्ति
विषयः कारणं नास्ति यतोहि विषयः अस्मिन् समये नास्ति तथापि ज्ञानं भवति
अस्तु पूर्वे अस्ति इति अस्तु अस्तु
पूर्वं भवेत् किन्तु इदानीं नास्ति
परन्तु प्रत्यक्षस्थले ये सन्निकर्षाः इन्द्रियसंयोगादायः अस्माभिः तत्र प्रसङ्गात् निरूपिताः ये च मूले समवायादायः सक्षमाणाः ते सर्वे षड्विधसन्निकर्षाः पदार्थस्य वर्तमानता दशायाम् एव सम्भवति एवं च विद्यमानेन पदार्थेन इन्द्रियस्य संयोगादिसन्निकर्षे सति घटादिप्रत्यक्षं न अन्यथा इदम् एव मीमांसा कार्तिकारैः
तत्र वार्तिका मीमांसवार्ति तत्र मुद्रदोषणं मुद्रणदोषः अस्ति मीमांसवार्तिककारैः
कुमारिलभट्टपादैः च
चोदनासूत्रे
चोदनासूत्रे अभिहितं तत्तु परिशीलयन्ति परन्तु प्रत्यक्षस्थले ये सन्निकर्षाः इन्द्रिय संयोगादायः अस्माभिः तत्र तत्र प्रसङ्गात् निरूपितात् ये च मूले समवायादायः वक्ष्यमाणाः ते सर्वे षड्विधसन्निकर्षाः पदार्थस्य च वर्तमानता दशायाम् एव सम्भवन्ति. प्रत्यक्षस्थले ये सन्निकर्षाः तु ये वह्निभूमसन्निकर्षः न तथैव न
अत्र इन्द्रियविषयसंयोगः
इन्द्रियसंयोगादायः सन्निकर्षाः तत्तु सन्निकर्षाः अस्माभिः तत्र तत्र प्रसङ्गात् निरूपिताः इन्द्रियसंयोगादयः अत्र तत्र तत्र प्रसङ्गात् केनापि प्रसङ्गः अस्ति तत्र निरूपणस्य एव न ये मूले समवाय आदाय वक्ष्यमाणाः ते सर्वे तत्र तत्र ते सर्वे षड्विधसन्निकर्षाः सन्ति पदार्थ
इत्युक्ते यदा घटप्रत्यक्षं भवति तत्र घटस्य रूपम् अस्ति घटरूपस्यापि ज्ञानं भवति घटं भूतले अस्ति चेत् भूतलस्य अपि ज्ञानं भवति घटेन सह यद्यत् समवेतः तत् सर्वस्य ज्ञानं भवति तत्र षड्विधसन्निकर्ष कपालस्य तत्सर्व पूर्वं पेज् 120 तत्र आसीत् तत्र अस्ति तादृश ज्ञानं तथा एव भवति यदा वर्तमानता दशा अस्ति यथा घटः विषयः पुरतः अस्ति तत्र एव षड्विधसन्निकर्षाः भिन्नभिन्नज्ञानानि भवन्ति
अस्तु अस्तु एवं च विद्यमानेन पदार्थेन इन्द्रियस्य संयोगादिसन्निकर्षे सति घटादि प्रत्यक्षं न अन्यथा हा इदानीं विवरणं कृतं न इदानीं कृतमेव हा इदमेव मीमांसाकारैः कुमारीलभट्टपादैः चोदनसूत्रे अभिहितं तत् विवरणं कृतम्
अवगतं वा सर्वैः सर्वैः अवगतं भवती अवगतवती अस्तु प्रश्नाः नास्ति सन्ति चेत् सुनील् महोदय अग्रे पठति वा
आं महोदय
सम्बद्धं
सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना इत्यनेन
महोदय क्षम्य इदानीमेव आगच्छामि किञ्चित् विलम्बेन आगच्छामि कुत्र पठन्ति भवन्तः
145
मम नाम चक्रि अहं चिन्तयामि एतत् नूतन न्यायवर्ग अस्ति चेत् अहम् आगच्छामि इति अहं मन्ये परन्तु अहम् इतः पूर्वं न पाठितवान्
ओ एषः नूतनवर्गः नास्ति महोदय एषः 2016
तः तर्हि क्षम्य अहं गच्छामि तर्हि
चिन्ता नास्ति
नमस्कारः
नमस्कारः अस्तु सुनील् महोदय सम्बद्धम् इति सूत्रमस्ति पूर्वं लिखितं सम्बद्धं वर्तमानं
हि गृह्यते चक्षुरादिना इत्यनेन तथा च सन्निकर्षः इव घटादिविषयोऽपि स्वप्रत्यक्षस्य नियतपूर्ववर्ती भवति इति सोऽपि स्वप्रत्यक्षं प्रति भवति कारणम् अस्य च प्रत्यक्षस्य ज्ञानरूपत्वेन तस्य समवायिकारणं भवति आत्मा. असमवायिकारणम् आत्मनः आत्ममनस्संयोगः. निखिलज्ञानं प्रति च अयम् आत्ममनस्संयोगः एव असमवायिकारणम्. निमित्तकारणं भवति घटः. अहं पुनः पठित्वा वदामि अत्र. तथा च सन्निकर्षः इव घटादिविषयोऽपि स्वप्रत्यक्षस्य नियतपूर्ववर्ती भवति इति सोऽपि स्वप्रत्यक्षं प्रति भवति कारणम्. अत्र घटः आदि अन्यविषयाः सन्ति चेत् यदा अत्र चक्षुषा अत्र सन्निकर्षः भवति अतः तत्र घटस्य प्रत्यक्षं भवति इति घटः कारणं भवति अत्र प्रत्यक्षं प्रति. अस्य च प्रत्यक्षस्य ज्ञानरूपत्वेन तस्य समवायिकारणं भवति आत्मा. यदा तादृशप्रत्यक्षः भवति तस्य प्रत्यक्षस्य ज्ञानरूपं भवति तेन ज्ञानरूपेण अत्र समवायिकारणं अत्र आत्मनि भवति.
आत्मा समवायकारणम् अस्तु सत्यम् आत्मनि
समवायकारणम् आत्मा भवति.
कारणत्वम् आत्मनि कारणम् आत्मा. तत्र प्रत्यक्षस्य ज्ञानरूपत्वम् इति तादृशज्ञानं ज्ञान तादृशप्रत्यक्षं ज्ञानमेव तस्य ज्ञानस्य प्रत्यक्षस्य समवायिकारणम् आत्मा. अस्तु अग्रे.
असमवायिकारणम् आत्ममनस्संयोगः. अत्र असमवायिकारणं किम् इत्युक्ते आत्ममनस्संयोगः एव. निखिलज्ञानं प्रति च अयम् आत्ममनस्संयोगः एव असमवायिकारणम्. अत्र इदानीं प्रत्यक्षम् अस्ति ज्ञानरूपत्वेन तत्र समवायिकारणम् आत्मा भवति. आत्मनसंयोगः भवति तदस्ति असमवायिकारणम् इति.
अत्र कार्यं किम्?
अत्र घटः इति कार्यं किल?
न
ज्ञानमिति कार्यं.
हा घटः इति विषयः.
विषयः
ज्ञानमिति कार्यं. ज्ञानस्य कारण समवायकारणम् आत्मा. ज्ञानस्य असमवायिकारणम् आत्मनसंयोगः. हा एव ज्ञानस्य निमित्तकारणं घटः विषयः घटः.
अतः निमित्तकारणं भवति घटः इति.
हा सत्यं.
यद्यपि केनचित् परम्परासम्बन्धेन घटमात्मनि नीत्वा घटस्य तत्प्रत्यक्षस्य च सामानाधिकरण्यं सम्पादयितुं शक्यं तथापि तु लाघवानुरोधेन घटान्तर्भावेणैव कार्यकारणयोः सामानाधिकरण्यमुच्यते. घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयवासम्बन्धेन स्वप्रत्यक्षं जनयति इति. अत्र कार्यं घटप्रत्यक्षं कारणं घटः कार्यदावच्छेदकसम्बन्धः विषयत कारणदावच्छेदकसम्बन्धः तादात्म्यम्. पुनः पठामि. यद्यपि केनचित् परम्परासम्बन्धेन घटमात्मनि नीत्वा घटस्य तत्प्रत्यक्षस्य च सामानाधिकरण्यं सम्पादयितुं शक्यं तथापि तु लाघवानुरोधेन घटान्तर्भावेणैव कार्यकारणयोः सामानाधिकरणं उच्यते. इत्युक्ते आत्मनि इदानीं ज्ञानमस्ति अतः घटः इति परम्परासम्बन्धेन एव आत्मनि अस्ति. अत्र घटस्य प्रत्यक्षं अत्र अस्ति चेदपि अत्र समानाधिकरणम् आत्मनि भवति. तथा तु लाघवानुरोधेन घटान्तर्भावेणैव कार्यकारणयोः समानाधिकरण्यम् उच्यते. अत्र लाघवं स्वीकुर्मः चेत् घटान्तर्भावेन अत्र आत्मा एव समानाधिकरणं किल महोदय अत्र अथवा
प्रथमवाक्ये तथा अस्ति यथा घटम् अस्ति प्रत्यक्षमस्ति तयोः समानाधिकरणम् आत्मा इति परम्परारूपेण सम्पादयितुं शक्यं वक्तुं शक्यते तथापि तत्र लाघवं नास्ति तत्र परम्परासम्बन्धः अस्ति किन्तु लाघव अनुरोधेन घटस्य अन्तर्भूते घटं स्वीकृत्य एव घटे अपि घटे एव कार्यकारणयोः समानाधिकरणम् उच्यते तत्र घटः एव अधिकरणं भवतु तत्र लाघवं भवति इति कथनस्य आशा न आत्मा किन्तु घटः एव अधिकरणं भवतु तथा लाघवं भवति
लाघवं भवति
कथम् इति अग्रे उच्यते
घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति इति अतः किमर्थम् इत्युक्ते घटः स्वस्मिन् तादात्म्येन तादात्म्यसम्बन्धेन स्थित्वा विषयतासम्बन्धेन प्रत्यक्षं जनयति इति कारणेन अत्र लाघवं स्वीकुर्मः इति
सत्यम्
अत्र कार्यं घटप्रत्यक्षं कारणं घटः अस्मिन् विषये अत्र कारणमस्ति घटः कार्यं घटप्रत्यक्षम् इति स्वीकुर्मः चेत् कार्यतावच्छेदकसम्बन्धः विषयता कारणतावच्छेदकसम्बन्धः तादात्म्यं अतः अत्र द्वितीयभागस्य एव किल अत्र यदा लाघवं स्वीकुर्मः चेत् एवं भवति लाघवं न स्वीकुर्मः चेत् तत्र आत्मनि समानाधिकरणीयम् इति एव किल
हा यथा घटः ज्ञाने विषयतासम्बन्धेन ज्ञानम् आत्मनि समवायसम्बन्धेन तत्र सम्बन्धद्वयं परम्परासम्बन्धः इति वक्तव्यं भवति किन्तु अत्र विषयतासम्बन्धः इति नूतनसम्बन्धः स्वीकुर्मः चेत् घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन ज्ञानं जनयति इति सारल्यमस्ति लाघवम् अस्ति अत्र मुख्यविषय विषयः अस्ति कार्यता अवच्छेदकसम्बन्धः विषयता कारणता अवच्छेदकसम्बन्धः तादात्म्यम् इति मुख्यविषयः मनसि स्थापयामः चेत् अग्रे अवगमनं सम्यक् भवति
इत्युक्ते अत्र कारणं घटः कार्यं घटप्रत्यक्षम् इति कारणेन कारणता अवच्छेदसम्बन्धः घटः तादात्म्येन स्वस्मिन् तादात्म्येन स्थित्वा प्रत्यक्षं जनयति इति
अग्रे महोदय तथा च
तथा च प्रकृतसमवायिकारणलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्न अवच्छिन्नत्वा अनुपादाने किञ्चित् सम्बन्धत्वावच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता इत्येव लक्षणे सति घटप्रत्यक्ष निमित्तकारणे घटे अतिव्याप्तिः कार्यतावच्छेदकः यः कश्चित् सम्बन्धः विषयतासम्बन्धः गृह्यते तदवच्छिन्न घटप्रत्यक्षनिष्ठ कार्यतानिरूपित तादात्म्य सम्बन्धावच्छिन्न कारणता निमित्तकारणे घटे अस्ति इति लक्षणे अतिव्याप्तिः समवायसम्बन्ध अवच्छिन्नत्व निवेशे तु तत्रत्यकार्यतायाः विषयतासम्बन्धेन अवच्छिन्नत्वात् न सा घर्तुं शक्या इति न अतिव्याप्तिः तथा च
दलसार्थक्यम् इति विषयः
द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वमिति तथा च प्रकृतसमवायिकारणलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपादने किञ्चित् सम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता इत्येव लक्षणे सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः. अतः अत्र इदानीं घटप्रत्यक्ष प्रत्यक्षं निमित्तकारणम् इति केवलं तदेव स्वीकुर्मः चेत् घटे अतिव्याप्तिः भवति इति एव किल.
अत्र एकवारं तत्र पठतु पूर्वं समवायसम्बन्धस्य लक्षणवाक्यं किम् आसीत्?
समवायसम्बन्धस्य तस्मिन् तादात्म्य सम्बन्धेन स्थित्वा
अत्र किम् अस्ति 144 तमे पुटे, तथा च समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित, पश्यति वा पूर्वस्मिन् पुटे 144 तमे पुटे अधोभागे, तथा च
समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित तदेव किल. तादात्म्यसम्बन्ध अवच्छिन्न कारणदाश्रयत्वं समवायिकारणत्वं पूर्वोक्तमेव
तावदेव. समवायकारणत्वलक्षणं समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति. किन्तु अत्र किम् अस्ति, प्रथमदले समवायसम्बन्ध अवच्छिन्नत्व इति त्यजामः चेत् कार्यतायां
तत्र एव महोदय, अत्र 144 एव वा?
न अग्रिमे 146 उपरि. तथा च फस्ट् सेण्टेन्स्,
तथा च प्रकृतसमवायिकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादने, इत्युक्ते अत्र समवायसम्बन्ध अवच्छिन्नम् इति त्यजामः चेत् किञ्चित् सम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता इत्येव लक्षणवाक्यं भवति. अथवा तत्र तस्मिन् लक्षणे घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः भवति इति अत्र अस्ति.
कथम् इति अग्रे उच्यते.
कार्यतावच्छेदकः यः कश्चित् सम्बन्धः विषयसम्बन्धः गृह्यते. अत्र कार्यतावच्छेदकः इत्युक्ते अत्र घटप्रत्यक्षम्
कार्यतावच्छेदकसम्बन्धः अत्र किञ्चित् सम्बन्धः इति उक्तं किल, किञ्चित् सम्बन्धः इति भवतु. किञ्चित् इत्युक्ते किमपि भवतु, विषयता सम्बन्धः भवतु नाम किञ्चित् इत्युक्ते विषयता सम्बन्धः भवतु. तर्हि
तदवच्छिन्न घटप्रत्यक्षनिष्ठ कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता निमित्तकारणे घटे अस्ति इति लक्षण अतिव्याप्तिः. इत्युक्ते अत्र कार्यतावच्छेदकः अत्र विषयतासम्बन्धः इति स्वीकुर्मः चेत् तत्र तदवच्छिन्न घटप्रत्यक्षनिष्ठकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता निमित्तकारणे घटे अस्ति, अतः अत्र लक्षणे अतिव्याप्तिः भवति. अहम् अवगच्छामि इति चिन्तयामि.
किञ्चित् सम्बन्धः इति वदनेन किमपि भवतु, विषयतासम्बन्धः भवतु. तर्हि विषयतासम्बन्ध अवच्छिन्न प्रत्यक्षं सर्वं स्वीकुर्मः चेत् तत्र घटे निमित्तकारणे इति कारणम् इति तत्र गच्छति. तादृशकारणं घटमेव निमित्तकारणं, किन्तु तथा तत् वयं न इच्छामः. वयं किम् इच्छामः, समवायकारणं कपालः इति इच्छामः किल, घटस्य समवायकारणं, तथा अतिव्याप्तिः घटे अस्ति निमित्तकारणे अलक्ष्ये इति अतिव्याप्तिः.
स्पष्टम् इदानीं समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु तत्रत्यकार्यतायाः विषयतासम्बन्धेन अवच्छिन्नत्वात् न स घर्तुं शक्या इति न अतिव्याप्तिः. अतः अत्र समवा दक्षिणभागे समवायसम्बन्ध अवच्छिन्न इति स्वीकुर्मः चेत् अत्र कार्यतायाः अथवा विषयतासम्बन्धेन अत्र अव्याप्तिः न भवति.
अत्र प्रायः तत्र चित्रमस्ति 107 अग्रिमे पुटे, तत्र पश्यामः किञ्चित् लाघवं भवति. तत्र घटः अस्ति अधिकरणं, तत्र तादात्म्यसम्बन्धः कारणतः अवच्छेदकसम्बन्धः, तद् घटः एव. कार्यं घटप्रत्यक्षं, विषयतासम्बन्ध कार्यता अवच्छेदकसम्बन्धः विषयतासम्बन्धः इति अस्ति. भवतु
अत्र तत्र परन्तु समवायसम्बन्ध अवच्छिन्न तदेव त्यजामः किल अत्र.
तत् त्यक्तं चेत् विषयतासम्बन्धः आगच्छति. वस्तुस्थितिः का अस्ति, विषयतासम्बन्धः तस्य स्थाने समवायसम्बन्धः भवतु, अपि च कार्यं घटम् इति भवतु. तत् सत्यं, वस्तुस्थितिः तथा अस्ति. अन्यस्य प्रश्नः अस्ति वा? अन्यस्य कस्यापि? अस्तु, अग्रे सरं द्वितीयदलम् इदमग्रे. कारणतायां
तादात्म्यसम्बन्ध अवच्छिन्नत्वानुपादने प्रथम असमवायिकारणे अतिव्याप्तिः. कपालद्वयसंयोगः घटं प्रति असमवायिकारणं. सः समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति आवेदितमेव सङ्ख्यानिरूपणे. तत्र हि कार्यतावच्छेदकसम्बन्धः समवायः, कारणतावच्छेदकसम्बन्धोऽपि सः एव. एवं च समवायसम्बन्ध अवच्छिन्न कारणता आदाय कारणमादायातिव्याप्तिः कारणमादाय अतिव्याप्तिः तादात्म्यसम्बन्ध अवच्छिन्नत्वनिवेशे तु न कपालद्वयसंयोगनिष्ठकारणता तादात्म्य अवच्छिन्न किन्तु समवाय अवच्छिन्न इति न अतिव्याप्तिः. अत्र इदानीं द्वितीय दलं त्यजामः चेत् अत्र कारणतायाम् अतिव्याप्तिः भवति इति एव किल सारांशः. इत्युक्ते कपालरूपं घटरूपं प्रति असमवायिकारणमिति द्वितीयविद असमवायिकारणम्.
इदानीं रूपं तद् मास्तु, केवलं प्रथमविध असमवायिकारणं कपालद्वयसंयोगः.
कपालद्वयसंयोगः घटं प्रति असमवायिकारणं. अतः अत्र समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति वयं जानीमः. अत्र कार्यतावच्छेदः सम्बन्धः एव समवायः.
अवच्छेदकसम्बन्धः समवायः. तादात्म्यसम्बन्ध अवच्छिन्नत्व अनुपादाने तादात्म्यसम्बन्धः कारणता अवच्छेदकसम्बन्धः अस्ति किल.
परन्तु समवायः इति द्वयमेव भवति किल अत्र.
सत्यं, द्वयमेव भवति.
अतः अत्र कारणतावच्छेदकसम्बन्धः अपि समवायः एव. एवं च समवायसम्बन्ध अवच्छिन्न कारणता आदाय अतिव्याप्तिः. अतः तादात्म्यसम्बन्धावच्छिन्नत्वं स्वीकुर्मः चेत् तत्र अधिजातिः न भवति. स्पष्टमिति प्रथमविधकार्यतायां त्यजनं चेत् अधिजातिः भवति, द्वितीयं कारणतायां इति चेत् अत्र अधिजातिः भवति. अत्र तादात्म्यं स्वीकुर्मः चेत् अधिजाप्तिः न भवति.
तर्हि दलद्वयमपि आवश्यकं कार्यतावच्छेदकसम्बन्धे अनुपादाने घटे अतिव्याप्तिः भवति, कारणता अवच्छेदकसम्बन्धः अस्य अनुपादाने असमवायिकारणे अतिव्याप्तिः भवति इति अतिव्याप्तिदोषः भवति. तस्मात् दलद्वयमपि आवश्यकं समवायिकारणस्य लक्षणवाक्ये इति. एतावता प्रश्नः अस्ति वा? सर्वं स्पष्टं अस्ति वा?
प्रश्नः नास्ति, परन्तु अहं पुनः एकवारं शृणोमि, अहम् अवगच्छामि.
अस्तु, अग्रे सुकुमन् महोदय पठति वा? द्रव्यप्रति अन्य कोऽपि अस्ति वा? सरलभगिनी अस्ति वा? अस्तु, सुकुमन् महोदय.
हा, पठामि महोदय. इदानीं द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वम् इति शीर्षकम्. आद्यम् असमवायीकारणं समवायेन समवायीकारणे स्थित्वा समवायेन कार्यम् उत्पादयति. आद्य असमवायीकारणम् इत्युक्ते कार्येण सह समवेतं यत् समवायि असमवायीकारणं कार्येण सह समवेतं सत् कारणम् असमवायीकारणम् इति प्रथमविध असमवायीकारणं. तदेव अत्र आद्य असमवायीकारणम् इति उक्तं. समवायेन समवायीकारणे स्थित्वा समवायेन कार्यम् उत्पादयति. इह कार्यतायां कारणतायां च अवच्छेदकसम्बन्धः समवायः. स्थलद्वयोः अपि कार्यतायां कारणतायां च अवच्छेदकसम्बन्धः समवायसम्बन्धः एव इति अस्ति. तथा च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वं प्रथम असमवायिकारणत्वम् इति पूर्वमेव पठितं वयं. तदेव पुनस्मारत्वेन अत्र उक्तमस्ति. प्रथमविधसमवायिकारणं किम् इत्युक्ते समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं प्रथम असमवायिकारणत्वम् इति. अत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने किञ्चित् सम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवाय किञ्चित् सम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता इति लक्षणं स्यात् तथा सति घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः इति इदानीमेव अस्माभिः पठितं. तत्र यदि समवायसम्बन्ध अवच्छिन्नकार्यता इति दलं त्यजामश्चेत् तत्र कुत्र अतिव्याप्तिः भवति इति चेत् तत्र घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः भवति इति वयमिदानीमेव पठितवन्तः. तत् पुनस्मारणत्वेन अत्र उक्तमस्ति. समवायीकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः दर्शिता एव. तदपि वयम् इदानीमेव दृष्टं. तत्र समवायीकरणलक्षणं किम् इत्युक्ते तादात्म्य स्वस्मिन् तादात्म्येन स्थित्वा समवायेन यत् कार्यं जनयति तत् समवायीकारणम् इति इदं तत्र कार्यता अवच्छेदकसम्बन्धस्तु समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धस्तु तादात्म्यसम्बन्धः समवायीकारणे. इदानीं तत्र कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति दलं त्यजामश्चेत् तत्र घटे अतिव्याप्तिः भवति इति इदानीमेव तत्र उक्तं. तदपि इदानीमेव अस्माभिः दृष्टं. तत्र स्वप्रत्यक्षं प्रति यथा घटः निमित्तकारणं भवति तद्वदेव घटरूपमपि भवति निमित्तकारणम् इति अस्ति. इदानीं तत्र स्वप्रत्यक्षं प्रति यदा घटप्रत्यक्षं जायेत् तदा घटस्य आवश्यकता अपि अस्ति. घटं विना घटप्रत्यक्षं यदा कदापि न जायते इति कृत्वा तत्र घटस्य निमित्तकारणं भवति. एवमेव घटरूपम् अपि निमित्तकारणं भवति घटरूपप्रत्यक्ष विषये इति अस्ति.
न केवलं घटरूपं विषये, घटप्रत्यक्षविषये अपि. घटप्रत्यक्षस्य निमित्तकारणं घटरूपम्.
ओ, घटप्रत्यक्ष. किन्तु घट घटप्रत्यक्षम् इति वदामश्चेत् तत्र विषयः तु घट एव किल, घटरूपं नास्ति.
किन्तु घटरूपं पश्यतु, अत्र स्वप्रत्यक्षं प्रति यथा घटः निमित्तकारणं तद्वदेव घटरूपमपि भवति घटप्रत्यक्षं प्रति निमित्तकारणम्. यतोहि वायु अग्रे उच्यते.
अस्तु अत्र प्रतिपादितमस्ति, नीरूपाणां द्रव्याणां वायुवादीनां प्रत्यक्षम् अतः एव न भवति. ओ, इति तर्केण. यद्यपि तत्र घटरूपं वयं न पश्यामः, इदानीम् अस्माकम् अवगमनं तत्र नास्ति, घटमेव अवगमनम् अस्ति, घटमेव विषयीकुर्मः वयं, तथापि यस्य रूपं नास्ति तस्य प्रत्यक्षं न भवत्येव. उदाहरणार्थं वायु, वायौ रूपं नास्ति इति कृत्वा तत्र वायोः प्रत्यक्षं यदा कदापि न भवति. इत्यतः तत्र यद्यपि अस्माकम् अवगमनं घटे एव अस्ति, घटस्य एव विषयी कुर्मः वयं घटप्रत्यक्षसमये, तथापि घटरूपं नास्ति चेत् घटप्रत्यक्षं न भवितुम् अर्हति इति कृत्वा घटरूपमपि निमित्तकारणं भवति घटप्रत्यक्षे एव. समीचीनं महोदय.
यस्य हि स्मरामि, अत्र घटरूपम् इत्युक्ते कलर् इति न, आकारः, फार्म्, घटफार्म् इति. वायोः फार्म् नास्ति किल, या वायोः रूपं नास्ति, आकारः नास्ति. अस्तु,
तत्र रूपम् इति कलर् इति स्वीकुर्मश्चेदपि सम्यक् एव भवति किल.
सत्यं तदपि भवति,
वायोः रूपं नास्ति एव, कलर् नास्ति.
वर्गे सत्यं, किन्तु वर्गे उक्तं यत् फार्म्लेस् इति उक्तं, निरूपम् इति फार्म्लेस्, आकारः निराकारः इति निराकारः.
सत्यं, किन्तु इदानीं तत्र चिन्तनीयं भवति, यस्य कस्यापि द्रव्यस्य आकारः अस्ति किन्तु रूपं नास्ति वा, कलर् नास्ति वा इति चिन्तनीयं भवति.
सत्यं, यतोहि किमपि रूपं भवति एव, कलर् वर्णः भवति एव.
आम्, यस्य आकारः अस्ति तस्य रूपं निश्चयेन भवत्येव.
सत्यं सत्यं, तदपि स्वीकर्तुं शक्यते प्रायः.
हा,
अस्तु, अग्रे.
एकनिमिषं महोदय, क्षम्यतां, किञ्चित् कासा अस्ति. यस्य हि द्रव्यस्य प्रत्यक्षं चक्षुरादिना जननीयं तत्र समवायेन रूपापेक्षा. हा, यस्य हि द्रव्यस्य द्रव्यस्य प्रत्यक्षं चक्षुरादिना जननीयम् इति स्थितिः तत्र समवायेन रूप आपेक्षा अस्ति. तत्र इन्द्रियरूपयोः, रूपम् इति इदानीम् आकारम् इति स्वीकुर्मः, नो चेत् गुणं कलर् इत्यपि स्वीकुर्मश्चेदपि तत्र इन्द्रियेण सह तत्र समवायेन सम्बन्धः भवेत् किल. एवं च यथा घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति, तथा घटरूपमपि समवायेन घटे स्थित्वा विषयतासम्बन्धेन घटप्रत्यक्षं जनयति. इदानीं तत्र पूर्वस्मिन् वाक्ये उक्तं घटरूपमपि घटप्रत्यक्षं प्रति निमित्तकारणम् इति. तत्र सम्बन्धः कः इति चेत् तत्र विषयतासम्बन्धेन एव घटरूपमपि घटप्रत्यक्षं जनयति. यथा घटः विषयतासम्बन्धेन घटप्रत्यक्षं जनयति तदा घटरूपमपि विषयतासम्बन्धेन एव इदानीं विषयतासम्बन्धेन एव स्वप्रत्यक्षं घटप्रत्यक्षं जनयति. तत्र इदानीं घटरूपं केन सम्बन्धेन घटे वर्तते इत्युक्ते समवायसम्बन्धेन एव घटे वर्तते इति अवगन्तव्यम् अस्ति अत्र. अस्तु, इह कार्यता विषयतासम्बन्ध सम्बन्धा अवच्छिन्ना, कारणता च समवाय अवच्छिन्ना इति अस्ति. इदानीं कार्यता केन सम्बन्धेन अवच्छिन्ना इत्युक्ते तत्र कार्यम् इत्युक्ते किम्? अत्र घटप्रत्यक्षम् इति कार्यं, तत् केन सम्बन्धेन अवच्छिन्ना इत्युक्ते विषयतासम्बन्धेन अवच्छिन्ना. इदानीं कारणं किं? घटरूपमेव कारणं घटप्रत्यक्षं प्रति. घटरूपं केन सम्बन्धेन अवच्छिन्ना इत्युक्ते समवायसम्बन्धेन अवच्छिन्ना इति अस्ति. तथा च प्रकृत असमवायीकारणलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने किञ्चित् सम्बन्ध पदेन पूर्ववत् विषयतासम्बन्धं ग्रहीतुं शक्नुमः. इदानीं तत्र कथं वा अतिव्याप्तिः भवति, घटरूपे अतिव्याप्तिः भवति इति अत्र प्रतिपादितमस्ति. प्रकृत असमवायीकारणे लक्षणे इत्युक्ते तत्र प्रथमविद समवायी असमवायीकारणे लक्षणे तत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं निवेशितम् अस्माभिः, तत् त्यजामश्चेत् किं भवति इत्युक्ते तत्र विषयतासम्बन्धमपि तत्र अन्तर्भूतं भवति, तद् ग्रहीतुं शक्नुमः इति कृत्वा तदवच्छिन्नघटप्रत्यक्षनिष्ठकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता प्रत्यक्षनिमित्तकारणे घटरूपे अस्ति इति रूपे अतिव्याप्तिः भवति. इदानीं तत्र तद् इत्युक्ते विषयतासम्बन्ध अवच्छिन्न घटप्रत्यक्षनिष्ठकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता प्रत्यक्षनिमित्तकारणे घटे रूपे आपतति इति कृत्वा घटरूपे अतिव्याप्तिः भवति यदा समवायसम्बन्ध अवच्छिन्नकार्यता इति दलं असमवाय प्रथमविध असमवायिकारणस्य लक्षणे त्यजामश्चेत् इति पर्यवसति. अतः कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने तु तत्रत्य कार्यतासमवायेन अवच्छिन्ना किन्तु विषयतासम्बन्धेन इति न अतिव्याप्तिः भवति. इदानीं कथं वा तद् अतिव्याप्तिः निवारितम् इत्युक्ते तत्र समवायसम्बन्धावच्छिन्नकारणता इति दलं योजयामश्चेत् प्रथमविध असमवायिकारणस्य लक्षणे समवायसम्बन्धावच्छिन्नकार्यतानिरूपित इति दलं योजयामश्चेत् तत्र विषयतासम्बन्धेन यत् कार्यता भवति तत् इदानीं अग्रहीतं भवति इति कृत्वा तत्र अतिव्याप्तिः न भवति इति कृत्वा तत्र समन्वयः भवति लक्षणे.
सम्यक् महोदय. केन कस्यापि प्रश्नः अस्ति वा? अस्तु, अग्रे तर्हि सुनील् महोदय पठति वा कारणतायाम्? अत्र द्वितीयदलस्य सार्थक्यम् असमवायिकारणस्य द्वितीयदलस्य
कारणतायां समवायसम्बन्ध अवच्छिन्नत्व अनुवादाने समवायसम्बन्धावच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्न कारणता इति लक्षणं भवेत्. तथा सति समवायिकारणे एता अतिव्याप्तिः एव अतिव्याप्तिः. तत्र अपि हि कार्यता समवायसम्बन्ध अवच्छिन्न कारणता परं तादात्म्येन अवच्छिद्यते. तथा च किञ्चित् सम्बन्धपदेन तादात्म्यस्य ग्रहणे समवायिकारणे अतिव्याप्तिः. कारणतायां समवायसम्बन्ध अवच्छिन्न अथवा उपादानेन वारणं च अपि भवति. एतादृश असमवायकारणत्वमेव गुरुत्वस्य पतनं प्रति चन्दनं प्रति च द्रवत्वस्य निरूपितम् अस्माभिः मूलग्रन्थनिरूपणे तदिहापि अनुसन्धेयम्। इदानीं कारणतायां समवायसम्बन्धावच्छिन्नत्वं त्यजामः चेत् किं भवति इत्युक्ते समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित किञ्चित् सम्बन्ध अवच्छिन्नकारणता इति लक्षणवाक्यं भवति। तत्र किं भवति इत्युक्ते समवायिकारणे अतिव्याप्तिः भवति यदा पूर्वं वयं दृष्टवन्तः। अत्र किं भवति कार्यतासम्बन्ध कार्यता इत्युक्ते समवायसम्बन्ध अवच्छिन्न भवति कारणता तत्र तादात्म्येन अवच्छिद्यते इत्युक्ते स्वस्मिन् तादात्म्येन एव भवति इति कारणेन तथा च
कुत्र कुत्र कारणता तादात्म्येन अवच्छिद्यते
अत्र इदानीं कारणता इदानीमपि घटः एव किल
इत्युक्ते कस्मिन् कारणस्य लक्षणवाक्ये कारणता तादात्म्येन अवच्छिद्यते इत्युक्ते समवायसम्बन्ध इत्युक्ते समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित
तादात्म्यसम्बन्ध
कुत्र कस्य लक्षणवाक्यम् अस्ति तत् तादृशं वाक्यं समवायसम्बन्ध अवच्छिन्न कार्यता तादात्म्यसम्बन्ध अवच्छिन्न कारणता कुत्र अस्ति समवायिकारणे अस्ति न वा हा समवायकारणस्य लक्षणवाक्ये कार्यतावच्छेदकसम्बन्धः समवायः कारणतावच्छेदकसम्बन्धः तादात्म्यम् इति अस्ति समवायिकारणस्य लक्षणे किन्तु अत्र
तथा च किञ्चित् सम्बन्धपदेन तादात्म्यस्य ग्रहणे समवायिकारणे अतिव्याप्तिः अत्र किञ्चित् सम्बन्धेन सम्बन्धः इति पदेन उपयोगं कुर्मः चेत् अत्र तादात्म्यस्य समवायिकारणे अतिव्याप्तिः भवति इति
किञ्चित् सम्बन्धः तस्मिन् स्थाने तादात्म्यसम्बन्धः भवतु नाम किन्तु तत्तु समवायिकारणस्य लक्षणवाक्यं भवति तस्मात् समवायिकारणे अतिव्याप्तिः भवति अवगतम् तदर्थं तत्र किञ्चित् सम्बन्धः इति न वक्तव्यं किन्तु यत् वक्तव्यं तद् वक्तव्यं किं वक्तव्यम्
अत्र कारणतायां समवायसम्बन्धावच्छिन्नत्व उपादानेन एव अत्र प्रश्नस्य निवारणं भवति
सत्यं तदर्थं वक्तव्यं तथा न वदामः चेत् किञ्चित् सम्बन्धः वदामः चेत् तत्र तदात्मसम्बन्धः आगच्छेत् किन्तु तादृशं तत्तु समवायिकारणस्य लक्षणवाक्यं न असमवायिकारणस्य तस्मात् दोषः भवति तदर्थं कारणतावच्छेदकसम्बन्धः अपि समवायः इति वक्तव्यं भवति इति मुख्यविषयः अवगतं वा स्पष्टं वा
अवगच्छामि अत्र पुनः अत्र दीर्घवाक्यं पश्यामि अत्र
तत्र केवलं तत्र चित्रं पश्यतु तत्र केन लाघवं भवति अत्र कारणतावच्छेदकसम्बन्धः कः इति चिन्तयतु कार्यतावच्छेदकसम्बन्धः कः इति अवच्छेदकसम्बन्धं तादृशचिन्तनेन किञ्चित् मम अभिप्रायः एवमस्ति किल, किञ्चित् लाघवं भवति.
अग्रे पठामि वा? एतादृश असमवायिकारणत्वमेव गुरुत्वस्य पतनं प्रति सन्दनं प्रति च द्रवत्वस्य निरूपितम् अस्माभिः मूलग्रन्थनिरूपणे तद् इह अपि अनुसन्धेयम्. यदा एतादृश असमवायिकारणत्वमेव वयं पूर्वं गुरुत्वस्य पतनं दृष्टवन्तः. अनन्तरं चन्दनं प्रति अपि द्रवत्वस्य चन्दनं प्रति अपि दृष्टवन्तः. पठामि वा?
पुष्पभगिनी अस्ति वा, पठितुमिच्छति वा अन्तिमप्रच्छेदः? एतादृश अस्ति वा?
अस्ति महोदय.
अन्तिमपरिच्छेदः पठति वा? एतादृश
एतादृश प्रथमा समवाय समवायीकरणत्वं बुद्धौ निधाय एव मूलकारणे कार्येण सह एकस्मिन् अर्थे समवेतं समवायीकरणम् इति लक्षणं कृतम्.
समवेतम्
असमवायीकरण इति लक्षणं कृतम्. एतन्मूलार्थः सम्यक् निरूपितः तत एव अवगन्तव्यः. सर्वे समवायिक वयं दृष्टवन्तः न समवायसम्बन्ध अवच्छिन्न कार्यका निरूपितः ये सर्वे. एतादृश प्रथम समवायिकारणत्वं अङ्गीकृतं न ज्ञानम् अस्ति चेत् बुद्धौ न ज्ञानम् अस्ति चेत् मूलकारेण कार्येण सह एकस्मिन् अर्थे समवेत असमवायिकारणम् इति लक्षणं कृतम्. एतादृश समवायिकारणत्वं अङ्गीकृत न ज्ञानम् अवगतं चेत्
अत्र कीदृशं समवायिकारणत्वम्?
असमवायिकारणत्वं न
कीदृशम् कीदृशम् असमवायिकारणत्वम्?
एतादृश गुरुत्वं स्पन्दनं प्रति न स्पन्दनं प्रति न समवायिकारणं तु
अत्र एतादृश प्रथम असमवायिकारणत्वं प्रथमविध असमवायिकारणत्वं द्वितीयसमवायिकारणे अग्रे आगच्छति. एतावता
गुरुत्वं स्पन्दनं
तत्सर्वं प्रथमविध असमवायिकारणं.
अस्तु महोदय.
मूलकारेण कार्ये मूलकारेण
एतन्मूलार्थः सम्यक् निरूपितः तत एव अवगन्तव्यः.
एकवर्षं भगिनि पूर्वं
मूलकारेण एकस्मिन् अर्थे समवेत असमवायिकारणम् इति लक्षणं कृतं. एतादृश प्रथमसमवायिकारणत्वं ज्ञातुं चेत् मूलकारेण
कार्येण सह एकस्मिन् अर्थे समवेतम् असमवायिकारणम् समवेतमेव असमवायिकारणम् इति लक्षणम् अस्ति इति एतन्मूलार्थः सम्यक् निरूपितः तत एव अवगन्तव्यः
पूर्वं पठितम् अस्माभिः इति वदति अत्र भगिनी प्रथमविध असमवायिकारणत्वस्य लक्षणवाक्यं किम्
प्रथमविध अर्थात् समवायसम्बन्ध अवच्छिन्नत्व अनुपादने समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित किञ्चित् सर्वसम्बन्धावच्छिन्न कारण
न किञ्चित् न किञ्चित् न
किञ्चित् न तत्
समवायसम्बन्ध अवच्छिन्न कार्यतः सत्यं किन्तु अग्रे
निरूपित किञ्चित् न किञ्चित् नास्ति चेत् अवच्छिन्न
किञ्चित् तत्र दोषः अस्ति किञ्चित् तत्र स्थाने किं वक्तव्यम् इति मूलविषयः भगिनि अस्तु 146 तमे पुटे तत्र तृतीय थर्ड् लैन् तथा सेकेण्ड् लैन् तथा च
सेकेण्ड् लैन्
सेकेण्ड् लोवर् पार्ट् अधोभागे तथा च
ज्ञापकमस्ति इदानीं तथा च प्रकृतसमवायिकारणं
तत्र न तत्र न अधोभागे अधोभागे आद्यम् असमवायिकारणं द्रव्यप्रत्यक्षे रूपस्य इति अस्ति किल शीर्षकः
द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वं
तस्य अनन्तरं किमस्ति आद्य असमवायिकारणं तस्मात्
आद्यसमवायिकारणं समवायेन समवायिकारणे स्थित्वा समवायेन कार्यम् उत्पद्यते इह कार्यतायां कारणतायां च अवच्छेदकसम्बन्धः समवायः तथा च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वं प्रथमसमवायिकारणत्वं प्रथम असमवायिकारणत्वम्
इति लक्षणवाक्यमस्ति समवायसम्बन्ध अवच्छिन्नकार्यता समवायसम्बन्ध अवच्छिन्नकारणता तत्र किञ्चित् सम्बन्धः केवलम् उक्तम् अतिव्याप्तिदोषस्य निवारणाय किञ्चित् सम्बन्धः इति तत्सर्वं तर्कः लिखितः मूलवाक्यम् एतत् लक्षणवाक्यं यथा भवती पठितवती तदस्ति मूललक्षणवाक्यं समवायसम्बन्धावच्छिन्नकार्यता समवायसम्बन्धावच्छिन्नकारणता इति मूलविषयः स्पष्टं वा भगिनि इति मनसि भवेत् अग्रे द्वितीयसमवायकारणं वा अस्तु तर्हि एतावता अस्माभिः वयं मूलवर्गे यत्र स्मः तावत्पर्यन्तम् अस्माभिः तत्र प्राप्तम् ईक्वल् अस्ति इदानीम् ईक्वल् अस्ति इदानीम् अस्य वर्गस्य आवश्यकता आगामिसप्ताहे न भवति इति मन्ये
महोदय स्वरूप महोदय इदानीं स्थापितं
हा सत्यम् अत्रैव स्थापितः
साटर्डे क्लास्
हा सत्यं
साटर्डे 11 o'clock क्लास्
इदानीं न भवति
स्वरूपमहोदय पूर्वे
इदानीं 11 टु 12:30 अस्ति इदानीं नव न्यू
सत्यं सत्यं नूतनवर्गः अस्ति
अस्तु महोदय बहु सम्यक् महोदय
कश्चन प्रश्नः अस्ति वा नो चेत्
नास्ति महोदय धन्यवादः
धन्यवादः शुभरात्रिः
धन्यवादः महोदय
शुभरात्रिः